इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी ब्राजीलदेशस्य राष्ट्रपतिना लुइज इनासियो लूला डा सिल्वा इत्यनया सह अद्य नवदेहल्यां द्वैपाक्षिकसम्मेलनं विधास्यति। उभौ नेतारौ द्विपाक्षिकसम्बन्धानां समग्रतया समीक्षां करिष्यतः। बहुपक्षीयमञ्चेषु सहकारः, बहुपक्षवादस्य परिष्कारः, वैश्विकशासनम्, दक्षिणविश्वसम्बद्धविषयैस्सह परस्परहितसम्बद्धानां क्षेत्रीयवैश्विकविषयाणां विषये अपि द्वयोः नेत्रोः वैचारिक आदानप्रदानं भविष्यति। नवदिल्ल्यां इण्डिया AI इम्पैक्ट सम्मिट 2026 इत्यनेन सहैव प्रधानमन्त्री श्रीमोदी लिच्टेन्स्टैन देशस्य राजकुमारः, अलोइस स्लोवाक गणराज्यस्य राष्ट्रपतिः पीटर पेलेग्रिनी, श्रीलंका देशस्य राष्ट्रपतिः अनुरा कुमार दिशानायके, मॉरिशस देशस्य प्रधानमन्त्रिणा डॉक्टर नवीन चंद्र राम गुलाम इत्येतैः सह द्वैपाक्षिक सम्मेलनम् अकरोत्। संयुक्त राष्ट्र संघस्य महासचिवेन अंटोनियो गुटेरस इत्यनेन च सह मेलनसमये प्रधानमन्त्री मोदी संयुक्त राष्ट्र संघस्य परिष्कार विषये विशेषतः ग्लोबल साउथ इत्यस्मै महत्वदानाय वैचारिक आदान प्रदानम् अकरोत्। केन्द्रीय गृहमन्त्री अमितशाहः अद्य गुवाहाटीनगरे केन्द्रीय आरक्षिबलस्य स्थापना दिवस समारोहे भागं संगृह्य दशम असम पुलिस बटालियन इत्यस्य शिलान्यासं करिष्यति। प्रथमवारं CRPF इत्यस्य वार्षिक स्थापना दिवस कार्यक्रमः असमराज्ये पूर्वोत्तर प्रदेशे च आयोज्यते। विदेश मन्त्रालयः अवदत् यत् भारत अमेरिका देशौ परस्पर लाभप्रद व्यापार समन्वयम् अन्तिमं कर्तुं कार्यं कुर्वन्तौ स्तः इति। ह्यः नवदेहल्यां प्रसार माध्यमान् सम्बोधयन् विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयसवालः अवदत् यत् मुख्य वार्ताकारस्य नेतृत्वे एकं प्रतिनिधिदलं अग्रिम सप्ताहे अमेरिका देशं गमिष्यतीति।
We had adopted the joint statement between the United States and India recently, and as per the joint statement, both sides are now working to finalization of the interim agreement of a mutually beneficial bilateral trade agreement. What I understand is that a delegation from our side, a team led by the chief negotiator from our side, is expected to visit the United States next week.
AI Impact Summit 2026 इति सम्मेलनस्य समापनं ह्यः नवदेहल्याः भारतमण्डपम् इत्यत्र भारतस्य रेस्पोन्सिबल AI विजन इत्यस्य प्रबलेन वैश्विक समर्थनेन सह अभवत्। नवदेहल्यां समापन पत्रकार सम्मेलनं सम्बोधयन् इलेक्ट्रॉनिक्स अथ सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् AI इम्पैक्ट शिखर सम्मेलनम् अनेकेषु क्षेत्रेषु महत् साफल्यं प्राप्नोदिति। श्री वैष्णवः अवदत् यत् आर्टिफिशियल इंटेलिजेंस इत्यस्य क्षेत्रे महत्वपूर्णाः सर्वे प्रमुखाः देशाः AI इंडिया AI इम्पैक्ट समिट 2026 घोषणापत्रे हस्ताक्षरितवन्तः। मन्त्री अवदत् यत् सप्ततितः अधिकाः देशाः पूर्वमेव घोषणापत्रे हस्ताक्षराणि कृतवन्तः। एषा संख्या 80 पारं गमिष्यति इति अपेक्षते, परन्तु अद्य इंडिया AI इम्पैक्ट एक्सपो इत्यस्य अन्तिमः दिवसः अस्ति। प्रदर्शकेभ्यः, नवान्वेषकेभ्यः, अभ्यागतेभ्यश्च सर्वकारः एकदिवसं यावत् प्रदर्शन्याः विस्तारं कृतवान्। प्रातः सपादनववादनतः सायं 6 वादनपर्यन्तम् उद्घाटयिष्यते च। प्रधानमन्त्री नरेन्द्रमोदी श्वः प्रातः 11 वादने आकाशवाणी इत्यत्र मन की बात इत्यस्मिन् कार्यक्रमे देश विदेशवासिभिः जनैः सह स्वविचारान् व्यञ्जयिष्यति। इदं मासिकस्य आकाशवाणी कार्यक्रमस्य 31 प्रकरणं भविष्यति। हिन्दी प्रसारणानन्तरं तत्क्षणमेव आकाशवाण्यां क्षेत्रीय भाषास्वपि कार्यक्रमस्य प्रसारणं भविष्यति। इति वार्ताः।